कृतवानमेतं समेतभतन्ता अविकितचित्तपरितं फनन्तु सकेकामे च रूपे किरीशिखरतटे चन्द्रलिखे विमाने क्षेपे रथे च कामे तलवनगहने अरमवधूमिकेते भूमचयन्तु ते वचलतलविषमेयकन्थापनाका तितन्तसन्धिकेयं मुनिवरवचनं साधवो मे सुनन्तु धम्मश्रवणकालोऽयं पतन्ता धम्मश्रवणकालोऽयं पतन्ता धम्मश्रवणकालोऽयं पतन्ता।